त्वमग्नेवसों गृहरुद्रां आदित्यां उत यजास्वध्वरञ्जनं मनुजातं घृतपृशम् सृष्टेवानो हि दाशुषे देवा अग्ने विचेतसः तान्द्रो हि दश्वगिर्वणस्त्रजस्त्रिंशतमावः ऋजमेधवदत्रिमज्जातवेदो विरोपवत् अङ्गिरस्मन्महौरथप्रस्कण्वस्य श्रुधे हवम् महिकेरव ऊतजे प्रियमेधा अहोषत राजन्तमध्वराणा भग्यम् शुक्रेण शोचिषा घृता हवनसन्त्ये मा उषश्रुधे गिराः याभिः कण्वस्य सो नभो हवम् ते वसे त्वा त्वाञ्चित्रश्रवस्तमहवन्ते भिक्षुजन्तवाः शोचिष्के शम्बरप्रियाग्ने हव्याजवोल्हवे नित्वा होतारमृत्विजम् दधिरेव सुवित्तमम् श्रुत्करणम् सप्रथस्तमम् विप्रा अग्ने दिविष्टिषो आत्मा विप्रा अचुच्यवसुतसो मा अभिप्रजाः बृहद्भा बिभ्रतो हविरग्ने मर्ता यथाशुषे प्रातर्जाणः सहस्कृतसोमपेजाजसन्त्य इहाद्यदैव्यञ्जनम् बर्हिरासादजावसो अर्वाञ्चम् दैव्यञ्जनमग्नेजक्ष्वसहोतिभिः अयम् सोमः सुदानवस्तम्बाततिरो अह्न्यम्